सर्वेभ्यो नमस्कारः।
अद्य सिद्धान्तकौमुद्यां पञ्चसन्धिप्रकरणे अन्तिम स्वादिसन्धिप्रकरणम् आरभ्यते। येनाक्षरसमां नायमधिगम्यमहेश्वर कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। पञ्चसन्धिप्रकरणम् इति आरब्धम्। आदौ अच्सन्धिः, ततः अच्सन्धौ प्रकृतिभावः, हल् सन्धिः, विसर्गसन्धिः, अन्ते स्वादिसन्धिः। स्वादिः सु आदयः स्वादयः, स्वादयः प्रत्ययः, सु औजस् इत्यादिना नामपदाभ्यां प्रातिपदिकाभ्यां विहिताः प्रातिपदिकेभ्यः विहिताः प्रत्ययाः स्वादयः इति कथ्यन्ते। तेषु प्रत्ययेषु परेषु ये सन्धयः सम्भवन्ति ते सन्धयः स्वादिसन्धिप्रकरणे उक्ताः। So he covers the almost like miscellaneous sandhis, the sandhis which happen when some pratipadika is followed by a pratyaya, one among the swadhi pratyayas. Adau svauja samut iti supratyaye shivas archyaha iti sthite iti arabhyate kaumudyam pankti. Sarvebhyaha pratipadikebhyaha nyap pratipadikat iti adhikare सु औजस् अमोक्षष्टाभ्यांभिस् ङेभ्यांभिस् नसिभ्यांभिस् ङस् ओस् आम् ञि ओस् सुप् इति एकविंशतिः प्रत्ययाः विधीयन्ते। एते एव सुप् प्रत्ययाः इति कथ्यन्ते। तदन्ताश्च सुबन्ताः, अत एव नामपदानां सुबन्ताः इत्यपि नामान्तरं विद्यते। सो द सुबन्तास् आर् नथिङ्ग् बट् द नौन् डिक्लेन्शन्स् इन् संस्कृत्। दे आर् काल्ड् सुबन्तास् बिकास् दे एण्ड् वित् प्रत्ययास् विच् कम् अण्डर् द प्रत्याहार सुप्। Sup is a pratyahara from the su of the first pratyaya to the pu of the last pratyaya. It covers 21 pratyayas which are called the swadhi pratyayaha. So now su is the first pratyaya in the list, which is the pratyaya for prathama vibhakti ekavachana. So you have shiva archaha. For shiva you need a prathama vibhakti ekavachana pratyaya, so you put the su pratyaya. The sutra is saujasamokshashtabhyambhis इत्यादिना चतुर्थाध्याये प्रथमपादे सूत्रमस्ति। सु इत्यत्र उकारः अनुनासिकः, अनुनासिकत्वात् उपदेशे अजनुनासिकैत् इत्यनेन इत्संज्ञायां तस्य लोपः इति लोपे शिव सु अर्च्यः इति भवति। इदानीं किं भवेत् इति प्रश्नः। ससजुषो रुः, पूर्वमपि इदम् अस्य सूत्रस्य उपयोगः कृतः, किन्तु कौमुद्याम् अधुना उपस्थाप्यते। पदद्वयं वर्तते, ससजुषः रुः। कः अर्थः? पदान्तस्य सस्य, पदस्य इत्यनुवृत्तिः अस्ति, पदान्तस्य सस्य सजुष् इति शब्दस्य च रुः स्यात्। सकारस्य स्थाने रुः आदेशः भवति, रु इति आदेशः क्रियते। एतदेव रुत्वं, सो इस् वेरि कामन्लि नोन् एस् रुत्वं। सो मोस्ट् फ्रीक्वेण्ट्लि यु सी दट् from now on in the Kaumudi, Dikshita does not say Sasajusho Ruhu, he just says Rutvam. Rutvam by default means Sasajusho Ruhu. We have already seen some other Rutva Prakaranas like Samasuti and all, but the by default when we are speaking of Rutva, it means by Sasajusho Ruhu, which is the most common type of Rutva found wherever you have a Sakara at the end of a Pada. Padantasya Sasya, Sajush is just another particle, but the most common frequent occurrence of this sutra is where there is a sakara found at the end of a pada. And where do we find sakara at the end of a pada? There are many pratyayas, like you have su, you have jas, shas, bhis, os. So we have at least 5 or 6 pratyayas within ngas also, as, ngasi and ngas. So there are 8 or 9 cases in within the sup pratyayas where we find a sakara at the end of a pada. I mean, when we add a supratyaya, it gets padasamya by suptingantam padam. So since sakara occurs at the end of many of these pratyayas, we find lots of occurrences where you have a form, a pada, which has a sakara at the end of it. So padantasya sasya rutvam bhavati. Agre kimapi bhavatu na bhavatu rutvantu bhavatyeva. Whether there's anything following or not, even if it is a single pada, then also we get sasajusho ruhu. Jashtva apavadaha. झलां जशोन्ते इत्यनेन जस्त्वं विधीयते। सूत्रार्थः कः? पदान्ते झलां जशः स्युः, पदस्य अन्ते झल् वर्णः अस्ति चेत् तस्य स्थाने जश्वर्णः आदेशः भवति। पदान्ते सकारः अस्ति चेत् शिवस् अर्चः इति सकारोपि झल् झल्त्वात् तस्य जस्त्वे दकारः आदेशः प्राप्नोति सो बै झलां जशोन्ते वि शुड् गेट् दकार एस् आदेश फार् सकार बट् दिस् इस् एन् अपवाद ससजुषो रुहु इस् एन् एक्सेप्शन् टु जस्त्व इफ् देर् इस् अ सकार एट् द एण्ड् आफ् ए पद इन्स्टेड् आफ् दकार वि गेट् रुत्व शिव रु अर्च्यः ससजुषो रुहु इत्यनेन सकारस्य स्थाने रुत्वं क्रियते रु इत्यत्रापि उकारस्य अनुनासिकत्वम् अस्ति उपदेशे अजनुनासिक इति तस्य लोपः इति लोपे शिव ऋ अर्च्यः सो द कामन् प्राक्टिस् इस् टु सिम्प्लि रीप्लेस् द स वित् द ऋ इट् इस् आक्चुलि रु वेर् द उकार गेट्स् इट् संज्ञा एण्ड् गेट्स् डिलीटेड् बै तस्य लोपः शिव ऋ अर्च्यः इदानीं किं भवेत् इति प्रश्नः मया आदौ कथितमासीत् विसर्गसन्धिः इति सामान्यतया यदुच्यते वस्तुतः विसर्गः नास्ति सर्वत्र एवमेव प्रक्रिया सकारः भवति सकार अथवा रेफः कदाचित् भवति सकारस्य स्थाने रुत्वम् इदानीं रुत्वे कृते इदानीं किं भवति इति प्रश्ने यदि खर्वर्णः अथवा अवसानमस्ति तर्हि खर्वसानयोर्विसर्जनीयः इत्यनेन विसर्गः भवति विसर्गे कृते सत्त्वं वा जिह्वामूलीयो वा श्रुत्वं वा किमपि भवति तत्सर्वं विसर्गसन्धावधीतम् इदानीं तु अन्येषु वर्णेषु परेषु अर्थात् खर्वर्णेषु परेषु विसर्गः भवति अन्येषु हश्वर्णेषु अक्षु च परेषु स्वरे परे किं भवति मृदुव्यञ्जने परे किं भवति रोः इति प्रश्नः कर्कशव्यञ्जने परे रेफस्य स्थाने विसर्गः भवति तदभावे ऋत्वमस्ति चेत् तस्य स्वरे परे मृदुव्यञ्जने वा परे किं भवति इति सर्वं स्वादिसन्धिप्रकरणे अधीयते इदानीम् अत्र अग्रे स्वरः नास्ति क्षम्यतां खर्वर्णः नास्ति अवसानमपि नास्ति केवलं शिव ऋ इत्यस्ति चेत् अवसाने शिवः इति भवति किन्तु अग्रे अर्च्यः इति पदमस्ति चेत् शिव ऋ अर्च्यः इति स्थिते विसर्गः न भवति देर् इस् नो विसर्ग हियर् विसर्ग इस् नाट् इवन् इन्वाल्व्ड् इन् दिस् सन्धि इस् द फस्ट् थिङ्ग् विच् यु शुड् रिमेम्बर् बिकास् द यूजुवल् प्राक्टिस् आफ् लर्निङ्ग् grammar without sutras makes it appear as if there is a visarga which is converted to repha it is actually the other way it is repha which can be converted to visarga in a certain case but in most of the cases it is not converted to visarga right it remains as it is I mean it either remains as it is or is converted to something else which does not involve the visarga right so shiva r archaha ityasti danim kim bhavet इति चेत् अग्रिमं सूत्रमस्ति अतो रोरप्लुतादप्लुते चत्वारि पदानि सन्ति अतः रोः अप्लुताद् अप्लुते ऋत उत् इति सूत्रात् उत् इति अनुवर्तते देर् इस् एरर् हियर् दिस् शुड् बि उत् उत् इति अनुवर्तते कः अर्थः अप्लुताद् अतः अप्लुतादिति अतः विशेषणम् कः पञ्चमी विभक्तिः अप्लुत अकारात् परस्य रोः इति षष्ठी रोः नाम रु रु इत्यस्य षष्ठी विभक्तौ रोः ऋत्वस्य स्थाने अप्लुते अति अप्लुत अकारे परे उः उत् उकारः आदेशः भवति इत्यर्थः अप्लुतादतः परस्य रोः उः स्यात् अप्लुते अति अर्थात् रेफात् पूर्वत्रापि अप्लुताकारः अग्रेपि अप्लुताकारः अस्ति चेत् रेफस्य स्थाने उकारः आदेशः भवति अग्रे भोभगो पूर्वस्य योषि इति यत्त्वं विधीयते तस्य अपवादः दिस् इस् एन् एक्सेप्शन् टु द सूत्र विच् विल् सी लेटर् विच् इस् अशि परे एण्ड् फालोड् बै अश् रुक्त्वा विच् इस् फालो रु विच् इस् फालोयिङ्ग् अकार विल् गेट् यकार एस् द आदेश सो वन्स् वि सी दट् दिस् वुड् बि क्लियर् बट् दिस् इस् एन् एक्सेप्शन् टु दट् इदानीं पश्यामः किं जातं शिव ऋ अर्च्यः इत्यस्ति ससजुषोरुः इत्यनेन ऋत्वे अधुना रेफस्य स्थाने रोः स्थाने शिव उ अर्च्यः इति उक्तं क्रियते अत्र प्रश्नः ससजुषोरुः सी द सीक्वेन्स् ससजुषोरुः इत्यनेन ऋत्वं कृतं ऋत्वविधायकं सूत्रमस्ति अष्टमाध्यायस्य द्वितीयपादे षट्षष्टितमं सूत्रं अर्थात् त्रिपाद्यां वर्तते ऋत्वविधायकं सूत्रम्। इदं सूत्रं तु अतोरोरप्लुतारप्लुते इति सपादसप्ताध्याय्याम् अस्ति, षष्ठाध्यायस्य प्रथमपादे। कथं ऋत्वानन्तरम् उत्तमं क्रियते इति प्रश्नः। वै हौ, बिकास् यु नो दट् वी केनाट् अप्लै सपादसप्ताध्यायी सूत्र आफ्टर् अप्लैङ्ग् ए सूत्र फ्रम् द त्रिपादी, बिकास् पूर्वत्र सिद्धं सपादसप्ताध्यायी डस् नाट् नो दट् त्रिपादी एक्सिस्ट्स्। सो ऑलवेज वी फिनिश् द सपादसप्ताध्यायी सूत्र फस्ट् एण्ड् देन् go to Tripadi. But here what we are doing is the opposite. There is a Tripadi Sutra which is applying to give Rutva, and then we are applying a Sapara Saptadhyayi Sutra. Purvatra Siddhyam ityanena asiddhatve tu Rutvameva asiddham. This Sutra will not know that Rutvu is there. So how do we apply this? This question. He says, Utvam pati Rutvasya asiddhatvam tu na bhavati. ऋत्वम् अनूद्य उत्त्वविधेः सामर्थ्यात्। दिस् इस् दिस् उत्त्व दट् इस् अतोरोरप्लुतादप्लुते इति सूत्रं प्रति ससजुषोरुः इति ऋत्वस्य असिद्धत्वं नास्ति। कथं ज्ञायते नास्ति इति रोः इति उच्यते। दिस् सूत्र स्पेसिफिकली सेज् रोः, सिन्स् द ऋत्वविधायकसूत्रास् आर् आल् इन् द त्रिपादी, इफ् दिस् अतोरोरप्लुतादप्लुते डस् नाट् नो दट् ऋत्व अकर्स्, इट् विल् नाट् अप्लै इन् एनी केस्, इट् वुड् बि ए वेस्ट्। Right, so if since the sutra says rohu sthane uttvam bhavati iti uchyate, yadi rutvam eva asiddham syat tarhi idam sutram vyartham syat kapi tasya apravrutti, it cannot apply anywhere because it does not know that ru exists at all. So rutvam anudya uttvavidhehe samarthyat, because panini says rohu, he specifies rohu, it means that this particular sutra will know that Rutva has appeared. Whatever sutra you get Rutva, this sutra will know. Why will it know? Because of that specific instance where Panini mentions Rohu. Since he says Rohu, it is obvious that the Ru should be known to the sutra, and therefore it is Siddha. So, there's a question. Ravichandanji asks, so why do all this circus? That is, why do you have to put this in the 6th chapter? Why not put it after Rutva? Atoror apluta raplute iti sutram atra kimartham? Ashtamadhyaye asajusho ruhu iti rutvam uktva tataha atoror apluta raplute rohu sthane uttvam bhavati iti uchyatam tatha kutona bhavati iti prashna. Is the question clear? This is a question which I would have raised in the next moment. So why not put this sutra in the 8th chapter? What Panini has done now is, he has put it in the Sapara Saptadhyayi, where technically it does not know Ru exists, but by saying, specifically mentioning Rohu, he ensures that Rutva is known to this. Why not push this after Sasajusho Ruhu, where it would know that Rutva exists, you say, define Rutva, and then say the Rutva will be converted to Utva. So why didn't Panini not do that? We'll have to put a whole bunch of sutras in Tripadi. Which sutras? Since this specifically mentions Rohu, isn't it only the... It says Ru, so after Ru you get... what's the problem? Somebody raise their hands. It's a very... Sadagopanji.
Because even after this application of Atoro-Raplute, we may need to apply some more sutras in the Sapara.
Exactly. Exactly.
Yeah, because of that, you know, Arjuna and all to be applied.
Right. So in the same case, what we do next is, it's not only for Anuvritti, it is the thing is that, it's not just anuti, it is a thing that after applying utva, you need to apply, say in this particular case, what's the form? As we know is shivorchyaha, where we do guna, akara and ukara, adgunaha ityanena gunaha bhavati. Yadi utvam ashtamadhyayasya, then there is no means of ensuring that guna will happen. Because guna was not made for this case, so we cannot say samarthya dasiddhatvam nasti. If it is atoror apluta or aplute, you should know the difference. There is a difference between saying ru is siddha for atoror apluta or aplute. It is because the sutra specifically says roho, and this sutra cannot apply without knowing ru. We can say that even if it is in Tripadi, it can know ru. But if we push this to the 8th chapter, adgunaha applies in hundreds of other cases. So it, even if it does not see the rutva, there is no problem. It would stay like this, as we see in lopashakalyasya. If we apply lopashakalyasya, adgunaha would not apply. Similarly, if utva were in the 8th chapter, here guna would not apply. But we need guna. We need other to apply other sutras of shashthadhyaya or sapada saptadhyayi. That is why he has to put it in here. Vasuji?
Namaste. You have answered essentially all. I just wanted to make some comments and everything is
okay.
Clear. Thank you.
Right? So, uttvam pati ruttvasya asiddhattvam tu na bhavati, ruttvam anudya uttvavidhehe samathyat. Shiva u archaha iti sthite, idanim kim bhavati iti prashnaha. Adgunaha ityanena gunaha bhavati iti uktam, kintu tadapavadatvena sutram asti, prathamayohu purvasavaranaha. What does anudya mean? There are two cases where there is a vidhi and there is an anuvada. Vidhi is where you are mandating something. The anuvada is where the mandated thing is used elsewhere. For example, sasajusho ruhu ityanena rutvam vidhiyate. Atoro rapruta rapruta ityanena vihitam rutvam anudyate. So the rutva has already been mandated by some other sutra. He just takes up or uses that in a further case. That is called anuvada. To say it again, first time when he tells there will be ru or there will be yan, it is vidhi. If he says that particular thing which has been mandated will get something else, that is anuvada. Yeah, Priya, I saw your question. I'll come to it later because it's there in the Kaundi itself. अग्रिमं सूत्रमस्ति प्रथमयोः पूर्वसवर्णः परद्वयं वर्तते इको एणचि इत्यतः अचीति अनुवर्तते अकस्सवर्णे दीर्घः इत्यतः अकः इति दीर्घः इत्यपि अनुवर्तते एकः पूर्वपरयोः इत्यधिकारः अस्त्येव अकः इति पञ्चमी विभक्तिः अक् अ इ उ ऋ इत्येतेभ्यः वर्णेभ्यः प्रथमयोः अत्र प्रथमा इत्यनेन प्रथमयोः इति द्विवचनं प्रथमा इति शब्दस्य द्विवचनं प्रथमा विभक्तिः द्वितीया विभक्तिश्च स्वीक्रियते प्रथमयोः अचि अर्थात् प्रथमा विभक्तेः द्वितीया विभक्तेश्च यः अच् स्वरः तस्मिन् परे पूर्वसवर्णदीर्घः पूर्वसवर्णः दीर्घश्च आदेशः भवति सो दिस् सेज़् वेन् एन् अक् लेटर् इस् फालोड् बै एन् अच् आफ् द प्रथमा विभक्ति आर् द्वितीया विभक्ति इन् सच् केस् there would be a purvasavarana dirgha as the adesha. Akaha prathama dvitiya yohu achipare purvasavarana dirgha ekadesha syat. Iti sutrartha. Atra pashyamaha shiva u archyaha. Ayam ukaraha katham nishpannaha. Adau shiva su archyaha ityasi su pratyaha. Prathama vibhaktau ekavachana pratyaha. Tasya sthane sasajusho ruhu ityanena rutve. Tasya cha punaha atorora pratara prate ityanena utve. इदानीम् अपि अयं प्रत्ययः दिस् इस् स्टिल् अ प्रत्यय प्रत्यय आफ् द प्रथमा विभक्ति एण्ड् अकार इस् अक् अकः प्रथमा विभक्तेः अचिपरे पूर्वसवर्णदीर्घः सो द आकार शुड् बी एन् आदेश हियर् वै प्रथमयोः पूर्वसवर्णः इन्स्टेड् आफ् आद्गुणः वि गेट् पूर्वसवर्णदीर्घ आकार अस् द आदेश अकः प्रथमा द्वितीययोः अचिपरे पूर्वसवर्णदीर्घः एकादेशः स्यात् इति प्राप्ते नादिचि पूर्वसवर्णदीर्घस्य निषेधः वर्तते पदत्रयं न आत् इचि प्रथमयोः पूर्वसवर्णः इत्यतः पूर्वसवर्णः इति अनुवर्तते आत् इति पञ्चमी विभक्तिः अवर्णात् इत्यर्थः इचि परे इच् नाम अकारं विहाय अन्ये स्वराः आल् स्वराज् अदर् देन् अच् विल् बि कवर्ड् इन् इच् सो वेन् अकार इस् फालोड् बै एन् इच् वर्ण पूर्वसवर्णदीर्घः न भवति This is a direct nishedha for prathamayo purva savarna. It says if it is akara followed by an ich letter, there is no purva savarna dirgha. Avarna disipare na purva savarna dirgha. Tasmadatra kim jatam shiva su archaha supratyaha tasya sasachushoruhu iti rutvam tasya atororaplata raplate iti uttvam atra avarnat shiva ityatra avarnat ichi ukaraha ijvarnaha avarnadichi pare purvasavarnadirghaha na bhavati purvasavarnadirghaha na bhavati chet kim syat adgunaha ityanena akara ukarayohu gunaha shivo archyaha tataha engah padantadati padantadengaha atipare hrasvakare pare purvarupam purvarupasandhehedam sutram purvarupe sati shivorchyaha iti rupam. So even though we split Shivorchaha as Shivaha and Archaha, the actual derivation of Shivorchaha, there is no Visarga involved. You just have Su, Ru, U and then Guna and Purvarupa. Right? Shivorchaha. Atra Prashnaha Atoror Apluta Daplute. Now we look at the Dalakritya of Atoror Apluta Daplute. Why are all those words required? The question is, it wrong to write Shivaha Archyaha in Prayoga? No, it is not wrong. It simply means there is no Samhita. When you split this Shivarchyaha, you have Shivar, that is, you originally have Shivar. So if there is nothing following, that is, if you do not intend it to have a Samhita with Akara, we'll use Kharavasanayor Visarjaniyaha and get Visarga. So there are two separate words with no Samhita. If there is Samhita, then we do not have a Visarga. That is all. Atoror apluta daplute ityatra. There is no identifying Samhita in Prayoga. It is just Vivaksha. Samase Samhita Nitya. Samhitaika pade Nitya, Nitya dhatu pasargayoho, Nitya samase. Vakyetu sa vivaksham apekshate. Samhita is compulsory if it's a single word. It is compulsory if it is between a dhatu and a upasarga. It is compulsory if it is a samasa. Everywhere else, it depends on the intention of the speaker. So if the speaker intends, there should be samhita, there would be samhita. We identify samhita. If there is a sandhi, there is samhita. If sandhi has not been done, we conclude that there is no samhita. That is all. Okay. Vasuji?
Amaji, I was guessing the reason why Apluta Laplute is because if there is a Pluta involved, it will take Prakriti Asanya and then it will prevent the Sanya. Is that right or wrong?
Not fully, right, but. We'll see. I mean, that is what I'm coming to now. The question is, he need not have said apluta daplute. It would anyway have been done by other cases. Is the argument. So we'll see how. Okay. So the first thing, ato roho apluta daplute. Iti ucchete. Ataha iti taparakaranam kimartham. Iti prathama prashna. Ataha iti tapara uchyate taparas tatkalasya tatparaha tahparaha yasmatsaha tatparascha uchcharyamana samakalasya eva samnyasyat taparakaranam sarvatra kimartham kriyate tasyaiva kalasya uchcha yasmin kale saha uchcharyate tasyaiva kalasya grahanam bhavet anye anyasya na bhavet arthat at iti samya prakarane dikshitaiha uktam at it ityadayah shannam shannam samnyah अत इत्युक्ते ह्रस्वाकारः इत इत्युक्ते ह्रस्वैकारः इति निर्णयः अत इत्यनेन षट् षण्णाम् अकाराणां ग्रहणम् किमर्थम् इति चेत् उदाहरणं दीयते देवा अत्र कथमत्र देवा इत्यस्मात् जस् प्रत्ययः क्रियते जस् प्रत्यये जकारस्य चुटु इत्यनेन इत्संज्ञा तस्य लोपः इत्यनेन रूपे देव अस् इत्यस्ति अत्र पश्यन्तु प्रथमयोः पूर्वसवर्णः अकः प्रथमा द्वितीययोः असि पूर्वसवर्णदीर्घः एकादेशः स्यात् इत्यनेन पूर्वसवर्णदीर्घे देवास् अस्य सकारस्य ससजुषोरुः इत्यनेन रुक्तम्। इदानीं देवार् अत्र इत्यस्ति। यदि तपनकरणं नास्ति, केवलम् अकारात् परस्य रोः अकारे परे उत्त्वम् इति यदि विधीयेत, तर्हि अत्रापि अकारः अस्ति, तस्मात् अत्रापि उत्त्वं स्यात्। सो टु प्रिवेण्ट् उत्त्व इन् दिस् केस् वेर् देर् इस् अ दीर्घ अकार विच् प्रिसीड्स् रुत्व, हि सेस् अतः, विच् मीन्स् वेन् देर् इस् अ ह्रस्व अकार विच् प्रिसीड्स् द रुत्व, देन् ओन्लि वि गेट् उत्त्व। अति इति तपरकरणं किमर्थम्? उभयत्रापि अतः अति इत्यस्ति, ह्रस्वकारात् ह्रस्वकारे परे एव। श्व आगन्ता, श्वस् आगन्ता इति स्थिते तस्य ऋत्वे श्व ऋ आगन्ता इत्यस्ति। अत्र रोः प्राक् ह्रस्वकारः अस्ति, अग्रे दीर्घः अस्ति, अत्रापि उत्त्वं न भवति। हि डस् नाट् वाण्ट् अद्वित् उत्त्व इवन् इन् दिस् केस्। He wants, it's simple, he wants Hraswakara on both sides, then only Utva will happen. That is why he uses Ataha and Ati. He uses Tapara in both cases. Now the question is, which must have occurred to most of you by now. If you have done Tapara Karana, which means you get only Hraswa, why say Apluta and Aplute? What is the purpose of those two things? You say Ataha, it means Hraswakara. If you say Ati, it means Hraswakara. Hraswakara implies it is not Aplutakara. Why should you specify Apluta and Aplute? That's the question. Apluta kim? So he gives an example. Ehi susrotah atrasnahi. Susrotas iti sakarantam pratipadikam. Tasya duradhuteja ittenena plutaha vidhiyate. Plutat paraha विसर्गः अस्ति, वस्तुतः अत्र विसर्गः अस्ति, विसर्गात् परत्वेन अकारः अस्ति। यु शुड् रिमेम्बर् दट् ऐ मीन् आफ्टर् द विसर्ग देर् इस् अ ऋत्व, देर् इस् एहि सुश्रोतार् अत्र स्नाहि। नौ यु शुड् रिमेम्बर् दट् प्लुतप्रगृह्य अचिनित्यं विल् नाट् अप्लै हियर्। प्लुतप्रगृह्य अचिनित्यं सेस् द प्लुत विल् रिमेन् एस् इट् इस्, इट् डस् नाट् प्रोहिबिट् अ सन्धि फार् द ऋ विच् फालोस् द प्लुत। What you have here is you have susrota r. Susrotas is a sakaranta pratipadika. The sakara gets rutva. You have susrota r atras nahi. So even though pluta prakrhya achinityam ittenena plutasya prakriti bhavaha vidhiyate, natu plutat parasya rohu. Idanim atra rohu pra plutaha akaraha vidyate, rohu paratvena hrasva akaraha at vidyate. Atra उत्त्वनिवारणार्थम् अप्लुतादकारात् इति उक्तम्। किमर्थमिति चेत् प्लुतस्य असिद्धत्वात् अतः परोऽयम्। प्लुतः केन सूत्रेण विधीयते? दूराद्धूते च। प्लुतविधायकं सूत्रमस्ति अष्टमाध्यायस्य द्वितीयपादे। नौ जस्ट् थिङ्क् दट् थिङ्क् फ्रम् द व्यू पायिण्ट् आफ् व्यू आफ् अतोरोरप्लुतादप्लुते। इफ् अप्लुताद् अण्ड् अप्लुते डस् नाट् एक्सिस्ट्, इट् विल् से अतोति। It is if Hraswakara is followed by Hraswakara. Since Pluta is Asiddha, from the point of view of Atoror Apluta Raplute, this is still Hraswa. You had a Hraswa which has become Pluta by Duradhutecha. But this Sutra, Atoti, does not know that there is a Pluta. So it will still consider this as Hraswakara and it will try to convert the root to U. Right? So to prevent that, he specifically mentions Aplutat. Now as we say in Rohu, when we say roho, even if ru is in the tripadi, it becomes siddha. Because rutvam anudya vidhiyate. Eva matrapya plutad iti ukte plutaha siddhaha ityarthaha. So if it does not, I mean, if it, even after saying this, if pluta is asiddha, then there is no point in plutting atplutad. So by mentioning, specifying aplutad, Panini ensures that this sutra, atoror aplutad aplute, knows that there is a pluta. So since there is a pluta, it will not convert the ru following the pluta to utva. Plutasya asiddhatvat atah paroyam. Kevalam atoti ityukte, ataha ati pare utvam ityukte, atrapi utvam prapnoti, tannivaranartham aplutat iti uktam. Aplutat iti visheshanetu tat samarthyat. Samarthya, wherever we say samarthya in Vyakarana, it means that samarthya is when it is useless without this particular case. That is, if pluta is not asi, if pluta is asiddha, then there is no point in telling aplutat. The word aplutat will carry no meaning. So, because of its capacity, it makes pluta siddha to atoror aplutat aplute. Now the question is, when you are saying taparakarana, when you are saying at, you are saying hrasvakara, does that not have samarthya? Iti chen, taparakaranasya tu na samarthyam, dirgha nivrutya saritarthatvat. Taparakaranasya kim prayojanam? Purvamuktam, deva atra. Iti atra dirgha akarasya, dirgha akarat parasya rohu uttam nasyat. Athama dirgha akare pare uttam nasyat. Iti atadartham taparakaranam kritam. తపరకరణేన దీర్ఘస్య నివృత్తి భవతి ప్లుతస్య నివృత్తిస్తు న భవతి ప్లుతస్యైవ అసిద్ధత్వాత్ తస్మాత్ విశిష్య అప్లుతాత్ ఇతి ఉక్త్వా ప్లుతాత్ పరస్య ప్లుతాకారాత్ పరస్య రోహు స్థానే ఉత్వం న భవతి ఇత్యుచ్యతే పాణినినా. వెరీ సిమిలర్లీ అప్లుతే ఇతి కిం ఇతి చేత్ తత్రాపి ఏవమేవ తిష్ఠతు పయ అగ్నిదత్త ఇత్యుచ్యతే తత్ర అ ఇత్యస్య గురోరణతోనంత్యస్యాప్యేకైకస్య ప్రాచాం ఇతి సూత్రేణ ప్లుతః విధీయతే. అత్రాపి ప్లుతస్య అసిద్ధత్వాత్ అతోరోరప్లుతారప్లుతే ఇతి సూత్రదృష్ట్యా అయం హ్రస్వాకారః. పయస్ ఇత్యత్ర పయర్ ఇతి ఋత్వమస్తి, సచ అతఃపరః అప్లుతాదతఃపరః అగ్రేపి అతి ఇత్యస్తి. అత్రాపి ఉత్వం స్యాత్ తన్నివారణార్థం అప్లుతాద్ అతి అప్లుతాదతః అప్లుతే అతిపరే ఉత్తమ్ ఇది ఉక్తం. చరితార్థ క్వశ్చన్, వాట్ డస్ చరితార్థ మీన్? ఐ సెడ్ దీర్ఘ నివృత్య చరితార్థత్వాత్. చరితార్థ ఇస్ వేర్ ఇట్ హస్ ఫౌండ్ హిస్ ఇట్స్ పర్పస్, ఇట్ హస్ సర్వ్డ్ సమ్ పర్పస్, ఇట్ ఇస్ కాల్డ్ చరితార్థ. ఫర్ ఎగ్జాంపుల్, వై తపరకరణ, వాట్ ఇస్ ద పర్పస్ ఆఫ్ తపరకరణ? యూ కెన్ ఈజీలీ సే రిమూవింగ్ దీర్ఘ, ప్రివెంటింగ్ ఉత్వా ఇన్ కేస్ ఆఫ్ దీర్ఘ ఇస్ ద పర్పస్ ఆఫ్ తపరకరణ. So it is charitartha, but if you say aplutat, aplutat has no other purpose than preventing utva in case of plutakara. Everywhere we use this charitartha where some sutra or some word has served a purpose. Purpose could be a single word, but the concept is nothing should go waste. That is, Panini has not told anything just like that. You can't just say any word, okay, it's simply there, doesn't matter. There are no such words in Shastra. Not only in Vyakarana, in any Shastra you take, there is no word which is just simply there or which does not have a purpose. For every single letter in the Shastra, we need to show a purpose. If it has served one purpose, then it's done. It's Sarthaka or Charitartha. If there is something which does not have a purpose, you have to show some purpose for it being there. Right? So atoror aplutad aplute, aplutad akarat parasya rohu aplute akare pare uttvam bhavati. So whenever you have an akara, hrasva akara before and after, then you have uttva followed by guna and purvarupa. So you have shivorchaha, ramosti, everywhere you have lots of examples, right? Can we move on? Any more questions? హషి చ ఇది అగ్రిమం సూత్రం. అతోరోర్ అప్లుతాద్ అప్లుతే హషి చ. సో ది మీనింగ్ ఇస్ ఆబ్వియస్ ఐ థింక్. ద క్వశ్చన్ విచ్ ముత్తు సుబ్రహ్మణ్యం జీ ఆస్క్, వుడెంట్ ఇట్ బి బెటర్ టు పుట్ హ్రస్వాకారాత్ హ్రస్వాకారే పరే instead of putting apluta and taparakarana? Would it serve the purpose? Would it work if Panini had said thrasvakara thrasvakare pare uttam bhavati? Would it work that way? Exactly. So it wouldn't work because pluta is still asiddha. So while saying hrasva, you can prevent. He could have prevented utva for dirgha, But he could not have prevented Pluta in case of Utva in case of Pluta, because Pluta is still a Siddha. So to make Pluta Siddha, he needs a Pluta and a Plute. And to prevent it for Dirgha, he needs Taparakarana. Okay, there is another question. What happened to the Sutra Nadichi? Means Nadichi is still there. So I did not understand the context.
No, so much. I thought you were going to go Hashicha, so I was wondering, are you going to cover Nadichi before that?
We covered Nadichi, no? We said Prathamaya Purva Savarnaha and Nadichi.
Okay, I think in the book it is covered as two sutras, I was thinking.
Yeah, yeah, I did. Didn't I make a separate sutra for Nadichi? Nadichi. Prathamaya Purva Savarnaha.
Oh, sorry, I think I missed.
No problem. No, it's just a nishedha for prathamayoh purva savarnaha. Akah prathama dvitiyayoh achipare purva savarna dirghah ekadeshah syat iti prapte nadichi ityanena nishidhyate. So that is why in shivorchaha we did not have purva savarna dirghah. But if you see,
I had a question in that.
Yes. Yes.
I think Balarama goes through that. Why do we need this sutram? If it is like Devadas says, Hantaris, it's already, it is Nisheda to a Nisheda. Why can't we have Akasarapatika?
I think we can deal it separately. Devadatta Hantarhata Nyaya is a huge thing. Okay.
Okay.
So, Dalakritya for Prathamayo Purva Savarnaha, there is no Dalakritya as such. Anyway, the actual occurrence of the Sutra is in the Ajanta Pullinga Prakarana. That is where we see the application of the sutra and any objections if there is. So the sutra was just told here because as an objection of was raised and it was cleared. That is all. Okay. And it is not compulsory to have Dalakritya for all sutras. Dikshita raises a Dalakritya when there is some significant point to make. Otherwise he just lets it go. Hashicha atoror aplutad aplute hashicha kaha arthaha aplutad ataha aplutad akarat hashi pare mrudubhyanjane pare api uttam bhavati bahusaralam paradvayam atoror aplutad aplute ityataha ataha aplutat rohu iti anuvartate ruta utu ityataha utu ityapi anuvartate aplutad atah parasya rohu uhusyat hashi शिवर वंद्यः इत्यस्ति ह्रस्वाकारात् परस्य रोहो हशि मृदुव्यञ्जने परे उत्तम स्यात् शिव उ वंद्यः तस्याद् गुणः इत्यनेन गुणे शिवो वंद्यः सो देयर आर टू केसेस वेयर यू गेट उत्वा वन इज वेयर इन बोथ केसेस देयर इज ह्रस्वाकार फॉलोड बाय रु इफ द रु इज फॉलोड बाय ह्रस्वाकार और इट इज फॉलोड बाय अ मृदुव्यञ्जन इन बोथ दीस केसेस वी हैव उत्वा. So it becomes, if it is Hrasvakara, there is an additional Purva Rupa also happening, which becomes Shivochyaha. Mrudubhyanjane paretu utve krate adgunaha ityanena gune Shivo Vandyaha. Iti Rupam. Rohu iti ukaranu bandhagrahanat neha. Ubhayatra atoror aplutar aplute hashicha iti ubhayatra. Rohu iti uchyate arthad ru ityasya shashti vibhaktav rohu. That is where there is ru, where ukara has been the itsamya. Anubandha means a letter which has itsamya. Ukaraha anubandhaha ru ityasya. Tadrishasyaiva rephasya uttam bhavati. Pratar atra ityasti. Pratar atra. Natu pratotra. Kimartham pratar iti rephantam avyayam. It has a repha by itself. This has not been derived from sasajusho ruhu. That is why he said ato rohu means where the ru has been derived from sasajusho ruhu. There only we can apply ato ro raplutara plute and hashicha. If it is a repha, rakara which is derived from some other source, or if it is naturally present in the pada, then we do not have utva. Pratar ityatraiva repha asti. Sahajatayaiva asti. Pratar iti rephantam. Tasmat pratar atra iti sthite. यद्यपि अप्लुतादतः परः अप्लुते अतिपरे सर्वम् अस्ति तथापि अस्य रेफस्य उत्तमं न भवति एवमेव भ्रातर् गच्छ इत्यस्ति. भ्रातः इति भ्रातृशब्दस्य सम्बुद्धौ सम्बोधनप्रथम एकवचनं. तदा किं भवति, ऋकारस्य गुणः क्रियते. ऋतोणि सर्वनामस्थानयोः इत्यनेन ऋ इत्यस्य गुणः क्रियते. भ्रातृ ऋकारस्य गुणे उरण्परः इत्यनेन सः रपरः भवति. भ्रातृ इति भवति सम्बुद्धिलोपः. अयम् अपि रेफः ऋत्वात् निष्पन्नः नास्ति. देर् हेस् बीन् नो ऋत्व. दिस् इस् जस्ट् द गुण फोर् ऋकार विच् हेस् बीन् फालोड् बै र बिकास् आफ् उरण्परः. सो इन् दिस् केस् आल्सो वी डु नाट् हेव् उत्व. ओन्ली वेन् द रेफ हेस् बीन् डिरैव्ड् फ्रम् एस् रु देन् ओन्ली वी हेव् उत्व. उकारानुबन्धग्रहणात् एषु स्थलेषु न भवति, प्रातरत्र भ्रातर्गच्छ इत्यादिषु. इदानीम् अपरम् उदाहरणं स्वीकुर्वन्ति. देवा इह इत्यस्ति. देव इत्यस्य देवशब्दात् प्रथमाविभक्तौ बहुवचने जस् प्रत्ययः. तत्र जकारस्य इत्संज्ञायाम् अस् इति भवति. देव अस् इह प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घे देवास् इह. सकारस्य ससजुषोरुः इत्यनेन ऋत्वे देवार् इह. अत्र किं भवति इति प्रश्नः. यतोहि ह्रस्व पूर्वमपि ह्रस्वकारः नास्ति, परतः अपि ह्रस्वकारः नास्ति, हश् अपि नास्ति. अतः अतोरोरप्लुतरप्लुते इत्यस्य वा हशि च इत्यस्य वा प्रसक्तिः नास्ति. सो वि केनाट् अप्लै उत्व हियर्. सो वाट् हेपन्स्, देवार् इह इति स्थिते भो भगो अघो अपूर्वस्य योषि इति अग्रिमं सूत्रम्. पदत्रयं विद्यते. भो भगो अघो अपूर्वस्य इति एकं पदं, यः इत्येकम् अशि. रोस्सुपि इति पूर्वस्मात् सूत्रात् रोः इति अनुवर्तते. भो भगो अघो अपूर्वस्य रोः, अशिपरे यः. सरलतया सूत्रार्थं वर्णयितुं शक्नुमः. एतत् पूर्वकस्य अर्थात् रोः प्राक् भो अघो भोगो अघो अथवा अकारः अस्ति चेत् अशिपरे अग्रे अश् अश् इति अच् तथा जबगडदश् इति. अश् इत्यनेन सर्वे स्वराः मृदुव्यञ्जनानि च गृह्यन्ते. अश् इस् अ प्रत्याहार फर् आल् स्वरास् एण्ड् आल्सो मृदुव्यञ्जनास्. हयवरट् लण् यमगणनं झभै घडदश् जबगडदश् इति पर्यन्तम् अश् प्रत्याहारः. एषु रेफस्य स्थाने यकारः आदेशः भवति. द ऋ इस् रिप्लेस्ड् बै यकार. असन्धिः सौत्रः. सो इफ् यु सी हियर् अघो भगो अघो एण्ड् अघो अपूर्वस्य, इन् बोत् दीस् केसेस् यु हाव् एन् आप्शन् फार् अप्लैङ्ग् एङः पदान्तरति. पूर्वरूपे भो भगो घो पूर्वस्य इति स्यात्. वै हेज़् हि नाट् दन् द सन्धि इस् जस्ट् सिम्प्लि because as I told just now, samase samhita nitya. Samhita nitya iti chet sandhirapi karaniya eva. Tasmad atra vastutaha purvarupam bhavet, kintu sautraha. We have two things, chandasatvat and sutratva. Chandovat sutrani bhavanti for Vedic prayogas and for prayogas in the sutra itself. There are some concessions, that is, we do not insist that the Panini should have done like this. Whatever he did is he did. We do not object or why he did not do the sandhi or why he did the sandhi. There are many cases where it happens, but like Vedic prayogas, these are also from maharshis, and so we accept them as they are. So sautraha means because it is a prayoga in the sutra, it is fine. But if we are doing such prayogas, we are not allowed to not do a sandhi if it is a samasa. देवार् इह इत्यस्ति. अवर्णात् अवर्णः अस्ति पूर्वं. भो भगो अघो अपूर्वस्य अ इत्यस्ति. अत्र तपरकरणं नास्ति. ह्रस्वः वा भवतु दीर्घः वा भवतु, अकारः भवेत्. तस्मात् परस्य रोः अशिपरे स्वरे परे अथवा मृदुव्यञ्जने परे किं भवति, यत्वं भवति. देवाय् इह भो भगो अघो अपूर्वस्य योषि इत्यनेन यत्वम्. यत्वे कृते लोपशाकल्यस्य, ऑलरेडी सीन दिस लॉन्ग एगो विथ एचोयवायावः. अवर्णपूर्वयोः पदान्तयोः यवयोः वा लोपः अशिपरे इति सूत्रार्थः. अवर्णपूर्वयोः पदान्तयोः यकारवकारयोः अशिपरे विकल्पेन लोपः भवति. लोपे कृते देवा इह इति रूपम्. tadabhave devaiha. So we have two forms. Whenever there is an akara and rutva, ru followed by either swara or mruduvyanjana, we have yatva. So if it is a swara, lopashakalyasya tenena vikalpena lope rupadvayam, deva iha tathaiva deva iha. Right? Ashikim. It's an interesting question. He says, why does this sutra mention ashi? The answer Dikshitar gives is devas santi. Here you have devar santi. Since it is not ash, we do not have the yatva here, is the straightforward answer. But it is not so simple. Devar santi ityasti. Kim bhavati tatra? Devar ityasthite agre ashvarnaha nasti ityataha yatvam na bhavati. Kharvasanayor visarjaniyaha. Tyanena kharipare rephasya visarge devaha santi. What applies next? What is the next form? I mean, which is the sutra which would apply next? Oops. Not visarjaniyasya saha. Hema?
I was going to say visarjaniyasya saha.
Correct. So everybody, that seems to be the first sutra which occurs to everybody. Right, I mean, visarjaniyasya saha is right, but what is the sutra which you can apply here? Satyam, kharipare visarjaniyasya sahasyat ityatra sandehaha nasti. Kintu, वा शरी शरी परे विसर्गस्य स्थाने विसर्ग एव विकल्पेन भवति. True that sattva is by visarjaniyasya saha is correct. So I just wanted to remember that there are two forms possible. One is the visarga will remain as it is by va shari, or it can be converted to sattva by visarjaniyasya saha. So shari pare va shari ityanena vikalpena visargasya sthane visarga vidhiyate tadabhave visarjaniyasya saha. Sattve devas santi devaha santi iti rupadvayam siddhyati. But the question here is, you see that what you are doing here, devar santi, what is the argument? The argument is to prevent yatva. In this case he has included ashi, correct? That is what is the meaning of this. Ashikim devasanti ityukte kim. Yadi ash iti padam nasti, tarhi devasanti ityatrapi yatvam syat. Iti khalu arthaha. That is what it means, no? Everywhere where he is asking a dalakritya, it means what would happen if it was not there? What would happen if ash was not there? He says devasanti ityatra yatvam syat. Yatvam neshyate tasmad ashi iti uchyate. Iti uttaram. Kintu, is that logic correct? Because you see that kharvasanayoh visarjaniyaha ityanena visargaha bhavati. Let's assume there is no ash. Bho bhago agho apurvasya yoshi iti sutre ash iti padam nasti. Kim asti bho bhago agho apurvasya yaha kharvasanayoh visarjaniyaha. Atra kim bhavet? What would apply here then? You still apply kharvasanayoh visarjaniyaha because it is the earlier sutra. Purvatra siddham ityanena kharvasanayor visarjaniyaha iti sutram prati bho bhago agho apurvasya iti sutram asiddham. Since this is asiddha, you would still apply kharvasanayor visarjaniyaha and you would still have the same form. Why do you need ashi? That's the question. That is the intent of ashikim. It's not saying why ashi means there is no ash, so there is no. It is not just that. Even if you do not say ash here, kharvasanayor visarjaniyaha ityanena visarga eva bhavati natu yatvam kimartham yatvasya asiddhatvat visarga eva bhavati. Hope the question is clear. So we still have a question, why ashi? So then he says yadyapi iha yatvasya asiddhatvat. Okay, correct. So sthane yadbhava. यद्यपि यत्वस्य असिद्धत्वात् विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुक्त्वात् यत्वं स्यात्. करेक्ट, बिकॉज यत्व इज असिद्ध, वी कन्वर्ट विसर्ग इंटू रु इंटू विसर्ग, बट स्टिल यूजिंग स्थानिवद्भाव भो भगो अघो अपूर्वस्य योषी ट्रीट्स दिस विसर्ग इट्सेल्फ एज रु थिंग्स स्थानिवद आदेशः. So this Adesha Visarga is like Ru and it will still try to convert the Visarga itself to Yakara. Right. So to prevent that he says Ashi, Ashipareva iti. Tasmat yadyapiha yatvasya asiddhatvat visargo labhyate tathapi visargasya sthanivadbhavena rutvat yatvam syat. But there seems to be a problem even with this logic. Can somebody spot a problem? स्थानिवदादेशः अनल्विधौ इत्युच्यते. अनल्विधावेव स्थानिवद्भावः. अयम् अल्विधिः खलु. वाट्स् हेपनिङ्ग्? यु हेव् विसर्ग विच् इस् रिप्लेस्ड् ऋ, सो इफ् इट् इस् रिप्लेस्ड् ऋ देन् दिस् इस् अल्विधि. द स्थानी इस् अ सिङ्गल् लेटर्, सो सिन्स् दिस् इस् अल्विधि, हौ आर् यु डूयिङ्ग् स्थानिवद्भाव? इट्स् द नेक्स्ट् क्वश्चन्. स्थानिवद्भावेन इत्युक्तं, किन्तु कथं स्थानिवद्भावः? Napadanta is a nishedha to sthanivadbhava, but we actually want sthanivadbhava here. We do not want a nishedha to sthanivadbhava. Only by using sthanivadbhava can we support that ashi is needed. If sthanivadbhava is not there, then ashi is not needed. Achahparasmin purvavidhav. Can achahparasmin purvavidhav apply here? Next question. Sthanivadadesha analvidhav. अजः परस्मिन् पूर्वविधौ इत्युच्यते. अत्र अजः परस्मिन् इति सूत्रस्य प्रवृत्तिः भवति वा? केन् वी डू स्थानिवद्भाव बै अजः परस्मिन् पूर्वविधौ? नो, वै नाट्? What is not ach? Is visarga not ach? Is visarga ach or not? Okay, let's see that. Visarga ha ach bhavati va nava. No? Is visarga not ach? Okay. For this, is visarga ach or not? Visargasya achtvam astiva nasti. Kim pramanam? Kena chiduchyate achapi bhavati hallapi bhavati iti. Kim pramanam? Dikshitaihi kemapi uktam va? Have you studied it in the Kaumudi? अनुस्वारः समस्तुटि इत्यादौ संस्कर्त इति रूपसिद्धौ दृष्टम् अयोगवाहानाम् अकारोपरि षर्षु च उपदिष्टत्वात्. द भाष्यकारा सेस् द अयोगवाहास् विच् इस् द अनुस्वार विसर्ग एण्ड् आल् आफ् देम् दे केन् बि कन्सिडर्ड् इन् टू प्लेसस् इन् द माहेश्वरसूत्रास्. अकारोपरि अ इ उण् इत्यत्र अकारानन्तरम् अयोगवाहानां पाठः अस्ति. पुनः शर्षु शशसर् इत्यत्यापि अयोगवाहानां पाठः अस्ति. तस्मात् अयोगवाहाः अच् अचः अपि भवन्ति, हलः अपि भवन्ति. सो दट् इस् वै वि कन्सिडर्ड् अनुस्वार एस् बोत् अच् एण्ड् हल् फार् डिफरेण्ट् पर्पसेस्. सो कमिङ्ग् बेक्, विसर्ग केन् बि अच्. सो केन् वि यूस् अचः परस्मिन् पूर्वविधौ? विसर्गः अच् भवितुम् अर्हति. अचः परस्मिन् पूर्वविधौ इत्यस्य प्रवृत्तिः अत्र भवति वा? Can somebody remember the sutrartha of Achaparasmin Purva Vidho? Or even remember what are the conditions for Achaparasmin Purva Vidho? I told that there are three conditions for Achaparasmin Purva Vidho. Saragopanji.
Devaha that is not that Nisarga is not because of Sandhi. It's not because of the Sakara.
Means?
Sakara Nimitatva Nisarga Nambhavati Vita.
Kuto Nambhavati Kharavasana Yoho. Kharvarne Pare Khalu Visarga. Sakara Eva Nimittam Khalu Kharvarnasya. Traya Niyamaha Santi. Paranimittam Syat. He is correct. Param Nimitti Paratra Yadasti Tanimitti Kritya Adeshaha Syat. Atra Visarga Adeshaha. Repasya Sthane Visargaha Adeshaha. Sakaram Nimitti Kritya Bhavati. Ataha Paranimittvam Asti. Purvasya Vidhihi. Astiva. Astiya Nasti. Tathapi Ayam Na Ajadeshaha. That is what I am trying to say. My point is, Ajadeshaha Namakaha. It is not a question whether Visarga is Ach or not. It's a question if the Sthani is Ach or not. Ajadeshaha, Achahasthane Yaha Adeshaha. Here the Sthani is R and it is not Ach. So there is no Achaparasmin Purva Vidho here. It is not because Visarga is not Ach. It is because R is not Ach. Tasmad Achaparasmin Purva Vidho iti Nabhavati. Okay. So, coming back to our point, Sthanivad Adeshaha Anal Vidho. We need Sthanivad Bhava. We cannot use Achaparasmin Purva Vidho. And it looks like we cannot use Sthanivad Adeshaha Anal Vidho because this is Al Vidhi. So what do we do? Is the question. Tada Uchyate. Nahi Ayam Al Vidhihi. Ayam Na Al Vidhihi. Kimartham Na Al Vidhihi. Rohu Iti Samudaya Rupa Ashrayanat. The Sthani Dharma, what we need, we do not need it to be Repha. We are not trying to convert Visarga to the Repha. Repha is an Al, correct. But we are trying to bring the Dharma of Ru. Ru is not Al. Ru has two letters. It has R and U. We need both. Right? So it is not Alvidhi because the Sthani here is Ru and not just Repha. There is a difference. If it is just Repha, Anal Vidhau iti uktatva Sthanivad Bhavaha Nambhavati. Kinto atra asmabhihi Sthanivad Bhavaha Rutva Sampadanartham Ashriyate. We are trying to do Sthanivad Bhava to ensure that Visarga gets the property of Ru. Since Ru iti samudaye, samudayaha na alvidhihi, na al. Tasmat ayam alvidhihi nasti. So this is not alvidhi, which means there is Sthanivad Bhava, which means, I hope we are not lost in the sea of arguments. The question, I'll repeat. The question, Ashi kim iti prachyate. Kaha ashayaha. Ashi iti kimartham vaktavyam. Why should Panini specify Ashi? The answer is Devas Santi. Devar Santi ityasti. Atra yatvam na bhavet ityadartham Ashi iti uchyate. Iti uttaram. Kinto, kharvasanayor visarjaniyaha iti visargam prati yatvam asiddham. This is 15 and that is 17. So automatically, kharvasanayor visarjaniyaha iti visarga eva bhavati yatvam na bhavati. Tasmat ashi iti navaktavyam is the counter argument that ashi is not needed. Even without ashi, we will still get visarga here. We will not get yatva. So next argument is correct. Visargadeshe krutepi visargasya sthanivad bhavena rutvam aniya rutvasya sthane yakaraha kriyate. So if there is no ash, since this visarga becomes ru pai sthanivad bhava, we can still do yatva. So prevent that yatva, we need ash is the answer. Now again the argument is we cannot do sthanivad bhava here because it is alvidhi. R iti rephasya sthane visarga vidhiyate ayam alvidhihi. Alvidhau sthanivad bhavah nasti. Tasmat atra visarga eva bhavati yatvasya avakashah nasti ashi iti napekshyate. We do not need ash is the counter argument. So the final answer is ayam alvidhihi nasti. This is not alvidhi. Kutaha अत्र रु इति समुदायः आश्रियते अतो भो भगो अघो पूर्वस्य योषि इत्यत्र रोः रु इति समुदायः अपेक्षते न तु रेफः द सूत्र एक्स्पेक्ट्स् अ रु विच् इस् नाट् अल् इट् डस् नाट् एक्स्पेक्ट् अ रेफ सो सिन्स् इट् इस् नाट् अल् विधि वि केन् स्टिल् डु स्थानिवद्भाव स्थानिवद्भावः भवति चेत् विसर्गः रुवत् भवति स्थानिवत् अर्थात् रुवद् भवति यदि विसर्गः रुवद् भवति तर्हि भो भगो अभव पूर्वस्य योषि इत्यनेन यत्त्वं प्राप्नोति तस्य निवारणार्थम् अशि इति उच्यते अशि इत्युक्तत्वात् खरि परे यत्त्वं न भवति इस् दट् क्लियर् वुड् यु लैक् मी टु एक्स्प्लेन् अगेन् इट्स् आल् अ सीरीस् आफ् आर्ग्युमेण्ट्स् सो यु शुड् फालो द सीरीस् इन् आर्डर् टु फालो इट् If you lose the link in the series, you'll wonder what's happening. You can go through this today. So before next class, if you have doubts, we'll go through this once more. Right, so we any doubts for now? Or can we stop? केनाक्षरसमां नायमहेन्यमहेश्वरात् कृत्स्नव्याकरणं प्रोक्तं तस्मै पाणिनये नमः मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्त